अथ अष्टमस्कन्ध अथ दशमोऽध्याय देवासु संग्राम। श्री शुक उवाच इति दानव दैतेया नाविन्दनमृतम् नृप युक्तः कर्मणि यत्तः स वासुदेव पराङ्मुखः साधयित्वा मृतम् राजन् पायित्वा स्वकांसुरान् पश्यताम् सर्वभूतानाम् ययौ गरुणवाहनः सपत्नानाम् परामृद्धिम् दृष्ट्वा ते दितिनन्दनः अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधः ततः सुरगणः सर्वे सुधया पीतयधितः प्रतिसंयुधुः शस्त्रे नारायणपदाश्रयः तत्र दैवासुरो नाम रणः परमदारुणः रोधः सुदन्वतो राजंस्तुमुलो रोमहर्षणः तत्रानुन्यम् सपत्नास्ते संरब्धमनसो रणे समासाद्यासभिर्बाणैर्निजघ्नुर्विविधायुधैः शङ्खतुर्यमृदङ्गानाम् भेरीडमरिणाम् महान् हस्त्यस्वरथपत्तीनाम् नदताम् निःस्वनो अभवत् रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः हया हयैरिभाश्चेभै समसज्जन्त संयुगे उष्ट्रैः केचिदिभै केचिदपरे युधुखरैः केचिद् गौरमृगैरिक्षैर्द्विपिभिर्हरिभिर्भटः गृध्रैः कङ्कैर्बकैरन्ये श्येन भाषैस्तिमिङ्गलैः सर्वैस्महिषैर्खड्गैर्गोवृषैर्गवयारुणैः शिवाभिराखुभिः केचित् क्रीकलाशैः शशैर्नरैः वस्तैरेके कृष्णसारैर्हंसैरन्यैः च शुक्रैः अन्ये जलस्थलखगैः सत्त्वैर्विकृतिविग्रहैः श्येनयोरुभयो राजन् विविशूस्तेऽग्रतोऽग्रतः चित्रध्वजपटै राजन् आतपत्रैः सितामलैः महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः वात्तोद्धुतोत्तरोश्लिषैरर्चभिर्बर्मभूषणैः स्फुरद्भिर्विशदैः शस्त्रैः सुतराम् सुर्जरश्मिभिः देवदानौ वीराणाम् ध्वजिन्यौ पाण्डुनन्दनाम् रेजतुर्वीरमालाभिर्जादसामिव सागरौ वैरोचनो बलिः शङ्खे स्वसुराणाम् चमुपतिः यानम् वैहायसम् नाम कामगम्मय निर्मितम् सर्वसाङ्ग्रामिकोपेतम् सर्वाश्चर्मयम् प्रभो अप्रतर्क्यमनिर्देश्यम् दृश्यमानमदर्शनम् आस्थितस्तद्विमानाग्रम् सर्वानेकाधिपैर्वृतः बालव्यजनच्छत्राज्ञ रेजे चन्द्रयुवोदये तस्यासन् सर्वतो जानैर्जुत्थानाम् पतयो सुरः नमुचिः शम्बरो बाणो विप्रचित्तिलयो मुखः विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः सकुलिर्भूतसन्तापो वज्रद्रंष्टो विलोचनः हयग्रीवः शङ्कुशिरा कपिलो मेघदुन्दुभिः तारकश्चक्रदृक्शुम्भो निशुम्भो जम्भ उत्कलः अरिष्टोरिष्टनेमिश्च मयश्च त्रिपुराधिपः अन्ये पौलोम काले या निवात कवचादयः अलब्धभागाः सोमस्य केवलम् क्लेशभागिनः सर्व एते रणमुखे बहुशो निर्जितामरः सिंहनादन् विमुञ्चन्त शङ्खान् दधमुर्महारवान् दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम् ऐरावतम् दिक्करिणम् आरूढः शुशुभेश्वराट् यथा श्रवत्प्रश्रवणम् उदयाद्रि महर्पतिः तस्यासन् सर्वतो देवा नानाबाहध्वजायुधा लोकपालाः सहगणैर्वायुग्निर्वरुणादयः ते अनन्यमभिशंसृत्य क्षिपन्तो मर्म्भिर्मिथ आह्यन्तो विशन्तोऽग्रे युधुर्द्वन्द्वयोधिनः युयोध बलिरिन्द्रेण तारकेण गुहोष्यतः वरुणो हेतिना युध्यन् मित्रो राजन् प्रहेतिना यमस्तु कालनाभेन विश्वकर्मा मयेन वै शम्बरो युद्धे त्वष्ट्रा सवित्रा तु विरोचनः अपराजितेन नमुचिरश्विनौ वृषपर्वणा सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च राहुणा च तथा सोम प्लुम्ना युधे निलः निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी वृषा कपिस्तु जम्भेन महिषेण विभावसु इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दमम् कामदेवेन दुर्मर्शम् उत्कलो मातृभिः सह बृहस्पतिश्चोशनसा नरकेण शनैश्चरः मरुतो निवात कवचैः काले यैर्वसवो मरः विश्वे देवास्तु पौलो मे रुद्रा क्रोध वशैषः तयेव माजा वसुरा मुसुरेन्द्रा द्वन्देन संघृत्यतजुध्यमानः अन्योन्यमासादलिजघ्निरोजसा जिगीषवस्तीक्ष्ण सरासि तोमरहि भुसुण्डभिश्चक्र गदर्ष्टिपट्टिशहि शक्तुल्मुखैः प्रास्परस्वधैरपि निस्त्रिंशभल्लहे परिघये समुद्ग्रहे सभिन्दि पालैश्च शिरांसि चिच्छिदुः गजास्तुरङ्गः शरथापदातयः सारोहवाहा विविधा विखण्डितः निकृतबाहुर्शिरोधराङ्ग्रय छिन्नाध्वजेश्वासुतनुत्रभूषणः तेषाम् पदाघातरथाङ्गचूर्णिता आयोधनादुल्वण उत्थितस्तदा रेणुर्दिशखम् द्युमणिम् च छादयन् न्यवर्तताश्रिक्षुतिभिः परिप्लुतात् शिरोभिरुद्धुतकिरीटकुण्डलैः संरम्भ दृग्भिः परिदष्टदक्षदै महाभुजैः सा भरणैः गदायुधै सा प्रास्थिता भूकरभोरुविभ्रमै कबन्धास्तत्र चोत्पेतुः पतित स्वशिरोक्षिभिः उद्यतायुध दोर्दण्डै राधावन्तो भटान् मृदे बलिर्महेन्द्रम् दशभिर्त्रिभिरैरावतम् शरैः चतुर्भिश्चतुरो वाहान् एकेनारो लोहमार्षत् स तानापतित शक्रस्तावद्भिः शीघ्र विक्रमः चिच्छेद निशितैर्भल्लैरसम् प्राप्तान् हसन्निव तस्य कर्मोत्तमम् वीक्ष्य दुर्मर्श शक्तिमाददे ताम् ज्वलन्तीम् महोल्काभाम् हस्तस्थामच्छिनधरि ततः शूलम् ततः प्रासम् ततस्तोमरमृष्टय यद्यशस्त्रम् समादत्य सर्वम् तदच्छिनद्विभु ससर्जाथा सुरीम् मायाम् अन्तर्धान गतोऽसुरः ततः प्रादुर्भुच्छैलासुरा नीकोपरि प्रभो ततो निपेतुस्तरवो दह्यमाना दवाग्निना शिलाः सटङ्क शिखराश्चूर्णयन्त्यो द्विषद्बलम् महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिका सिंहव्याघ्रबराश्च मर्दयन्तो महागजान् जातधान्यश्च शतशूलहस्ताद्विवासः छिन्दभिन्धीति वादिन्यस्तथा रक्षो गणा प्रभो ततो महाघना व्यम्नि गम्भीरपरुषस्वनः अङ्गारान्मुचूर्वात्तैराहतः स्तनयित्नवः सृष्टो दैत्येन सुमहान् वहने श्वसनसारथि साम्बर्तक इवात्युग्रो विविध ध्वजनीमधाक् ततः समुद्र उद्वेल सर्वतः प्रत्यदृश्यत प्रचण्डवात्तैरुद्धुत तरङ्गावर्तभीषणैः एवम् तैर्महामायैरलक्ष्यगतिभीषणैः सृज्यमानासु मायासु विषेदुः सुरसैनिकाः न तत्प्रतिविधिम् यत्र विदुरिन्द्रादयो निर्पध्यातः प्रादुर्भूत्तत्र भगवान् विश्वभावनः ततः सुपर्णांशकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः अदृश्यताष्टायुधबाहुरुल्लसत् श्रीकौस्तुभानर्घकिरीटकुण्डलः तस्मिन् प्रविष्टे सुरकूटकर्मजा माया विनेशुर्महिना महीयसः स्वप्नो यथा हि प्रतिबोधयागते हरिस्मृतिः सर्वविपद्विमोक्षणम् दृष्ट्वा मृधे गरुणबाहमिभारिवाह आविद्यशूलमहिनो दथ कालनेमिः तल्लीलया गरुणमूर्ध्नि पतद्गृहीत्वा तेनाहननृपसवाहमरिम् त्र्यधीशः मालिसुमाल्लतिबलौ युधिपेततुर्यश्चक्रेण कृत्तशिरसौ अथ माल्यमांस्तम् आहत्यतिग्मगदया हनदण्डजेन्द्रम् तावच्छिरोच्छिन्नदरे नदतो ऋणाद्यः इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् अष्टमस्कन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः।